अथ हरिभक्ताष्टकम् श्रीमद्वशुद्धराद्धान्तभूमयो धृतनेमयः महान्तो हरिसन्तोषकराः क्लेशहरा मम रूक्षाघक्षालने दक्षा मोक्षदाधोक्षजे क्षणाः रक्ष्ये लक्ष्या विपक्षाक्षहर्यक्षाः परपक्षकाः सुदयानिधयो मोक्षावधयो विजिताधयः हरिसन्निधयो ज्ञानेशुधयोऽम्बुधयो गुणैः प्रभञ्जनाप्तचित्पुञ्जाक्ष्यञ्जना जनरञ्जनाः निरञ्जनाः कञ्जना भव्यञ्जना भवभञ्जनाः नृत्यन्तः स्वान्तवृत्यन्तः सन्तो हन्तोज्झिता हरिम् भजन्तोऽन्यत्यजन्तस्ते यतयो गतयो मम सदा शास्त्रविचारस्थान् सदा शास्त्रजये पटून् सदा शास्त्रविचारस्थान् सदा शास्त्रपयोत्स्यतः अलम्पटादिविषयैरित्यलम्पटमानसान् अनलं कुर्वतः स्वाङ्गमनलं कुर्वतो द्विषाम् भ्रमतो भ्रमतो देशं नमतो नमतोदयम् गुरून् विद्यागुरून् सर्वान् स्मरध्वं स्मरतो हरिम् हरिभक्ताष्टकं दृष्टा दृष्टसर्वेष्टपुष्टिदम् यतिनावादिराजेन रचितं सर्वदा पठेत् इति श्रीवादिराजयति विरचितं हरिभक्ताष्टकम्।